नमस्सर्वेभ्यः अद्य तिङन्तप्रक्रियायाः एकत्रिंशः पाठः मार्च् मासस्य पञ्चदशः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् भारिगणस्य धातूनां सार्वधातुकलकारेषु प्रक्रिया अधीयमाना अस्ति तत्र भारिगणसम्बद्धतया सर्वाणि सामान्यकार्याणि विशिष्टकार्याणि च अधीतानि सार्वधातुकलकाराणां प्रत्ययानां निर्माणं च अधीतम् So before we go to the exercise of last class, let us do a summing up of what we have studied so far. Right. So in the prakriya krama that we have, all the steps are complete now. For the dhatus of Vadigana, we have done everything. Let us just step back and look at it step by step so that we are clear where we stand now. So, ayam prakriya kramaha bahudha purvamapi drishtaha adau mooladhatuhu tataha itsamnya lopabhyam itsamnika varnanam haranam प्राकृतिकानि अथवा निर्निमित्तानि कार्याणि यानि निमित्तान्तरं न अपेक्षन्ते ततः लकारविधिः अडाटौ लस्य तिबादयः विकरणप्रत्ययः विकरणनिमित्तमङ्गकार्यम् अङ्गमाश्रित्य प्रत्ययस्य निर्माणं पुनः प्रत्ययमाश्रित्य अङ्गकार्यं ततस्सन्धिकार्यम् अन्ते त्रिपादीकार्याणि इति क्रमः तत्र धातुः धातोः ज्ञाने धातुपाठमेव मूलं भवति तत्र सानुबन्धः धातुः अनुबन्धसहितः यथा उपदेशे धातुः उच्यते तथा ज्ञातव्यः बहुधा यथा वन्दते वन्द् धातुः इति बहुधा उच्यते तथापि मूले वदि अभिवादनस्तुत्योः इत्येव धातुः अतः मूलधातोः अनुबन्धसहितस्य ज्ञानम् आवश्यकम् तस्य अर्थः उपलक्षणमात्रः धातूस् आर् एक्स्ट्रीम्लि वेरीड् इन् देर् प्रयोगस् अण्ड् इन् देर् सेन्सस् दट् इस् आल्मोस्ट् इम्पासिबल् टु पिन् पायिण्ट् द एक्साक्ट् मीनिङ्ग् इन् विच् एनी धातु इस् यूस्ड् बट् इट्स् जस्ट् एन् इण्डिकेटर् आफ् द मीनिङ्ग् ततः गणः कस्मिन् गणे अयं धातुः किं पदं परस्मैपदी आत्मनेपदी आहोश्रित् उभयपदी इट्योग्यता सेट् अनिट् वेट् इत्येते अंशाः धातुपाठात् स्वीक्रियन्ते यथा भूसत्तायां भू इति धातुः सत्ता अर्थः भादिगणीयः धातुः परस्मैपदी सेट् क्षि क्षये भ्वादिः परस्मैपदी अनिट् धातुः श्मिङ् ईषद्धसने भ्वादिः आत्मनेपदी अनिट् यदि सस्वरः धातुपाठः उपयुज्यते तर्हि पदनियमः सेट् अनिट् नियमश्च स्वरादेव ज्ञातुं शक्यते प्रायः मोस्ट्लि जस्ट् बै लुकिङ्ग् एट् द स्वराज् यु केन् आल्सो डिसैड् वेदर् द धातु बिलोङ्ग् इस् अ परस्मैपदी आत्मनेपदी आर् उभयपदी You can also decide whether it is set, anit or weight, looking at the anubandhas. But most of the dhatupathas also give this information, so it's either way would be fine. So once we know this, second step is the itsamnya and lopa. Na kevalam dhatushu, kintu sarvatra pratyayova, adeshova, agamova, dhaturva, sarvatra padarthopasthitihi, अनुबन्धरहितस्यैव इति नियमः सो एज़ सून एज़ वी हेव् एनी पदार्थ इन् अट् हेण्ड् the first thing to do is to remove the letters which have itsamya. Anywhere, that is the first step that is to be done. Dhatushu itsamya vidhayakani trini sutrani santi. Upadeshe at anunasika itu. Anunasikaha at itsamyakaha bhavati upadeshe. Anunasikyamcha pratijnataha jnatavyam. So we know it by tradition, or if we have a dhatu patha which shows the anunasikas, we can use it. Otherwise, the general rule is any ach at the beginning, the O is one ach at the beginning, it is generally it. So other than that, if there are two vowels in a dhatu, the second one is in most of the cases it. Like patha, labha, vada, everywhere the second akara is anunasika and it gets itsamya. So sometimes, rare cases, there is a vowel at the beginning which is usually okara. Okay, that's a rare case, so that is also it. Okay. So wherever anunasika is, ach is present, whether at the beginning or the end, it gets itsamya. Yatra ach anunasikaha tatra itsamyam praapnoti. Halantyam iti sutrena ante vidyamanaha hal varnaha itsamyam praapnoti. Shrinya ityatra nyakarasya, shin ityatra ngakarasya aneya sutrena itsamya. Yatra itsamya tatra sarvatra tasya lopaha ityanena lopaha. These are all very basic things. I know most of you would be familiar with these by now, but I'm just doing a recap. Adir Nitudavaha. Adav Vidyamananam Ni Tu Du Iti Samudayanam Itsamya Vidhiyate Anena Sutrena. So, Itha Nitvara Ityatra Ni Ityasya Itsamya Tu Du Upatape Tu Ityasya Dupachash Ityatra Du Ityasya. Tatra dupachashityatra tu du ityasya adir nyutudavaha iti akarasya upadeshaya janunasika iti shakarasya halantyam iti itsamya. So we see the application of all these three. There is also a vartika which we need to remember in this regard. Ira itsamya vacha yatra yatra dhatav ir iti shruyate bhidir chidir ityadi tatra ir iti samudayasya api itsamya vidhiyate vartikena. They do not get the itsamya separately. Ikarasya refasya cha yadyapi upadesha adananasika ityanena ikarasya halantyam ityanena refasya itsamya bhavitum arhati tathapi tatra ir iti samudayasya iva itsamya angikriyate. Because if just the ikara independently is treated as it, there would be the possibility of idito num dhato. Yatra yatra hasva ikara se itsamya, we know that there is numagama by idito num dhato. Ataha ira itsamya vachya iti vartikena ir iti samudayasya iva itsamya angi kriyate natu ikarasya refasya cha prathaktvena. So that is the case in dhatus. Dhatus will not get itsamya by any other sutra or vartika. So three sutras and the vartika ira isamya vachya. Prateshu tu anyanyapi sutrani santi. As I said, even in pratyayas or adeshas, the first thing to be done is to remove the itsamya letter. So we'll just see the sutras. Upadeshe ajananasikait halantyam iti ubhayam sarvatra pravartate. So yatra yatra ach anunasikaha tatra itsamyam praapnoti. Yatra yatra hal ante vidyate tatra itsamyam praapnoti. Na vibhaktau tusmaha ting pratyayaha vibhakti samyakaha vibhaktau tavarga sakara makaranam itsamya na bhavati. Ataha tas ityatra sakarasya halantyam ityanena itsamya na bhavati. Atam ityatra makarasya halantyam ityanena itsamya na bhavati. Tataha pratyasya vishishya itsamya vidhiyate shaha pratyasya yatra pratyaye shakara hasti tatra itsamya kahataha shyang ityatra shakarasya itsamya यकारस्य तु हलन्त्यमिति य इति शिष्यते. चुटु प्रत्ययस्य आदौ विद्यमानानां चवर्ग तवर्ग वर्णानां इत्संज्ञा भवति. यथा जुस् छेर् जुस् इत्यनेन जुस् इति विधीयते स्थानिवद्भावेन सह प्रत्ययः, अतः आदौ जकारस्य इत्संज्ञा. एवं टा इति प्रत्ययश्चेत् तत्र आदौ टकारस्य इत्संज्ञा. चवर्ग टवर्ग अक्षराणां प्रत्ययस्य आदौ विद्यमानानां इत्संज्ञा भवति. लशक्व तद्धिते तद्धितभिन्नेषु प्रत्ययेषु लकार शकार कवर्गाणाम् इत्संज्ञा भवति. यथा शप् इत्यत्र शकारस्य इत्संज्ञा, ल्युट् इत्यत्र लकारस्य भवति, ककारस्य अपि क इति प्रत्ययस्य प्रत्ययश्चेत् ककारस्य इत्संज्ञा बहुत्र भवति. एतत् सूत्रत्रयं तु प्रत्ययस्यैव भवति, शः प्रत्ययस्य चुटु लशक्वतद्धिते इति विशिष्य. सो दिस् इस् आल् अबौट् इत्संज्ञा एण्ड् लोप. तत् प्रकरणम् एव स्मर्तव्यम्, यत्र यत्र इत्संज्ञा तत्र उपदेशे यजनुनासिक इति हलन्त्यं न विभक्तौ तु स्मः आदिर्ञीटुडवः शः प्रत्ययस्य चुटु लशक्वतद्धिते तस्य लोपः. सो एय्ट् सूत्र and you know what is there. So the whole prakarana is just eight sutras, so it's always important to remember them as one set and not independently. Okay. So if you just remember halantyam, there is always a question, tasya ityatra kuto na bhavati iti prashna bhavatyeva. So always remember them as one set. So saha dvitiyaha gattaha prakriya krame adav dhatuhu ततः इत्संज्ञा लोपः. तृतीयमस्ति प्राकृतिकं कार्यं, प्राकृतिकानि कार्याणि अथवा निर्निमित्तानि कार्याणि, दोस् विच् डू नाट् डिपेण्ड् आन् एनी पर्टिक्युलर् एक्स्टर्नल् निमित्त आर् काल्ड् द प्राकृतिककार्यस्. तत्र सामान्यतः सर्वेषां धातूनां सर्वेषु गणेषु प्रवर्तमानानि सामान्यकार्याणि चत्वारि भवन्ति. धात्वादेः शः सः, धातोः आदौ विद्यमानस्य षकारस्य सकारादेशः भवति. यथा शो इत्यत्र सो, षण इत्यत्र फन. अत्र स्मर्तव्यम् अत्र षकारस्य सकारादेशः, बट् द नकार हियर् हेज़् अरैव्ड् बिकास् आफ् द षकार. षकारं निमित्तीकृत्य अट्कुप्वाङ्गुं व्यवायेऽपि इत्यनेन नत्वं कृतं. षकारस्य निवृत्तौ नत्वमपि निवर्तते, अतः धातुः सन. एवमेव ष्ठा इत्यत्र षकारः ठकारः अस्ति, षकारं निमित्तीकृत्य ष्टुत्वेन ठकारः कृतः. यदा षकारस्य सकारः तदा तवर्गाक्षरस्य स्थाने तवर्गाक्षरः भवति, तवर्गाक्षरं भवति स्था इति धातुः. धात्वादेश्य सः, नो नः धातोः आदौ विद्यमानस्य णकारस्य नकारादेशः भवति. नम इत्यत्र नम, नु इत्यस्य स्थाने नु इत्यादि. तृतीयमस्ति इदितो नुम् धातोः, इदितः धातोः यस्मिन् धातौ इकारः ह्रस्वः इकारः इत्संज्ञां प्राप्नोति. इत् इत् यस्य सः इदित्, इत् इति तपरकरणं, ह्रस्वः इकारः इत्संज्ञकः यस्मिन् धातोः, तत्र नुम् इति आगमः क्रियते. मिदचोऽन्त्यात् परः इत्यनेन अन्त्यादचः परः नुम् आगमः. सो वदि इत्यत्र इकारः इत्, सो वद् वनद्. शकि शनक्, वाचि वा न छ. सर्वत्र इदितोनुम् धातोः इत्यनेन अनुमागमे कृते नश्चापदान्तस्य झलि इत्यनेन अनुस्वारः भवति. अग्रिमः वर्णः यदि ययि वर्णः तर्हि अनुस्वारस्य ययि परसवर्णः इत्यनेन परसवर्णोऽपि भवति. अतः शङ्क् वाञ्च् सर्वत्र तत्तद्वर्गस्य पञ्चमाक्षरः पञ्चमाक्षरं श्रूयते. बृहि इत्यादिषु तु बृंह् इत्यत्र अनुस्वार एव श्रूयते. इदितो नुम् धातोः इति नुमागमः. चतुर्थम् उपधायां च धातोः उपधाभूतौ यौ रेफवकारौ. धातोः उपधायाम् अलोन्त्यात् पूर्व उपधा. उपधायां यत्र रेफः वकारो वा विद्यते तस्मात् पूर्वं विद्यमानस्य ईग्वर्णस्य दीर्घः विधीयते उपधायां च. कुर्द् दकारः अन्तिमः उपान्तिमः रेफः. तस्मात् पूर्वं विद्यमानस्य उकारस्य दीर्घे कूर्द् एवम् उर्व् इत्यत्र ऊर्व् इत्यादि. So these four are the general karyas which apply everywhere. Any dhatu, any gana, we have it. Dhari ganasya vishishya kanichana prakritika karyani api drishtani. Some specific karyas which are applicable to special or specific dhatus in the dhari gana. Gup tij kidhyaha san. Gup tij kid iti trayanam dhatu nam. अर्थविशेषे गुपेर निन्दायां तिजेहे क्षमायां कितेहे व्याधिप्रतीकारे. सो इन स्पेसिफिक सेंसेस इन द सेंस ऑफ रिवल्शन टॉलरेंस एंड क्यूर वी हैव सन व्हिच इज एडेड टू दीस धातुस. सो सनीकृते जुगुप्स तितिक्ष चिकित्स इति धातवः निष्पाद्यन्ते. एतेषां सनाद्यन्ता धातवः इत्यनेन धातु संज्ञा. सो दीज आर सेकेंडरी धातुस. ऑन दीज धातुस वी कंटिन्यू विद द नेक्स्ट स्टेप्स. एट द स्टेप वी डिराइव द सन्नंता. सो देन द सन्नंता इज अगेन अ धातु बिकॉज ऑफ सनाद्यन्ता धातवः. सो वंस वी हैव द धातु संज्ञा वी प्रोसीड विद द अदर स्टेप्स लाइक एडिंग लकार एंड सो ऑन. मान बध दान शान्भ्यः दीर्घश्च अभ्यासस्य. मान बध दान शान इति चतुर्णाम धातूनां सन् भवति. सो अगेन वी हैव सन् इन स्पेसिफिक मीनिंग्स. आल्सो द अभ्यास वंस वी डू द्वित्व सन् कमांड्स अ सेट ऑफ इट्स ओन कार्यस. सो वन ऑफ देम इज डबलिंग. सो वंस वी डू द डबलिंग देयर इज अ दीर्घ फॉर द अभ्यास द फर्स्ट पार्ट ऑफ इट. सो अत्रापि सनिकते मीमांस बीभत्स दीदांस शीशांस इति चत्वारः धातवः. सो वी हैव फोर धातुस. ऑन दीज वी ऐड द लकार एंड टिप एंड सो ऑन. द रेस्ट ऑफ द स्टेप्स विल बी कॉमन. सो जस्ट द डिराइवेशन ऑफ द धातु इज स्पेशल फॉर दीज. गुपु धूप विच्छि पणि पनिभ्य आयः. सो फॉर दीज फाइव धातुस there is a different pratyaya which is called aya. So among these vichhi does not belong to this gana. So for the rest gopaya dhupaya panaya panaya iti chatvarah dhatavah. So aya pratyaye krute punah sanadyanta dhatavah itkanena dhatu samya tatah lakaradayah bhavanti. So in case of pana, you have to remember one thing. Pana vyavahare stutaucha iti dhatuhu. Tatra stutyarthakatve eva tasya ayapratyaha bhavati. Vyavaharathakatve tu panate iteva rupam. So it does not get aya in sense of vyavahara or business or gambling. It gets aya in the sense of stuti, praise. Ritehe iyang. Rit iti sautraha dhatuhu. So this dhatu is not found in the dhatu patha, but it is mentioned in the sutra, so we take it as a dhatu. Tasya iyang iti pratyaha bhavati. Ritiya iti dhatuhu. Kamehe ning. Kamukantau iti dhatuhu. Ning pratyaha bhavati. Ningi kamaya iti rupam. Kami iti dhatuhu. So you add shap, it becomes kamaya. Okay. So the dhatu here is actually kami. Okay. Is there a problem with audio? Ravichandan ji?
I can hear.
Okay.
I can hear.
So maybe something is wrong with your end, Rao Mahodaya. You can try. Maybe you can log out and log in once. That usually solves some of the problems of the webinar. Okay, so these are special karyas for specific dhatus of the bhadigana. Bhadigane etesham dhatunam vishishya etat karyam asmin stare bhavati. So at this step, okay, at the step of prakritika karya, for these, if there is any of this, these dhatus, you have to add it and get the dhatu and then proceed. Any questions at any stage, please feel free to interrupt me. There's no problem. We have done all this before, but still, if there you have questions, you're always welcome to ask. Aruna? Hello? Cannot hear you. Maybe you can type in the question. There is a question. Please do kamer ning. The kamu dhatu gets ning as the tatteya. So we have kamu e. We get ata upadhaya. There is dirgha. So we get kami as the dhatu. So, I mean, the kamaya is not the dhatu. Kami is the dhatu here. Then we add lakara. Then we add shap. Remember that all the sanadhyantas, they get shap as the default vikarana. Okay. So, shap is not only for bhadis, as we see later. So, sanadinam api shap bhavati. So, we have kami and a. So, then there is guna and ayadesha. So, it becomes kamaya. But the dhatu is actually kami. Kamer ning ityanena ning pratyaya krate kami iti dhatuhu siddhyati. So the next step is the lakara. Now we have the dhatu which is ready for prakriya. We do whatever has to be done without all this. So there is the dhatu which now undergoes further processing. The first thing we do for the dhatu is the lakara. So we know the lakaras, dashalakaraha. So lakaraha bhinnaihi sutrehi vidhiyante. There is actually quite a big prakarana at the end of the Kaumudi which covers the lakarartha, where we find that there are changes. I mean, in specific meanings, we have a different lakara and so on. But the general cases where we use the lakaras, vartamane lati, vartamana kale, prarabdha aparisamaptattvam vartamanattvam, that which has started and not ended is vartamana. Vartamana kale dhatoho lat pratyaha bhavati. Bhutakale trayaha lakaraha vihitaha, lung iti sutrena, bhute lung lakaraha bhavati. With no other qualifications, a general bhutakala past tense, the simple past is lung. Anadhyatane lung. Anadhyatana bhutakala. Adhyatanam na. Anadhyatanam yet bhutam. Tatra lung lakaraha bhavati. Parokshe lit. Paroksha anadhyatana bhutakale. Paroksham, that which the speaker has not perceived through his senses. Akshnaha param paroksham. So that which has been beyond the senses of the speaker. Tadrishe anadhyatana bhutakale lit lakaraha bhavati. Bhavishyati lakaradvayam. Lit sheshecha ityanena samanye bhavishyati. Lit lakaraha. Anadhyatane lut ityanena anadhyatana bhavishyat kale lut lakaraha. Ete shat kalavachaka lakaraha. Tataha bhavavachakaha vidhi nimantrana amantrana adhishta samprashna prarthaneshu ling. Svalinglakaraha Vidhyadishu Artheshu. So the series of meanings ranging from order to request. So they put it as Pravartanayam Ling. That which makes somebody else act is Linglakara, whether it's through an order or through a request. So the sutra gives the range which it can cover. Tasminneva arthe lot cha ittenena lot lakaropi bhavati. Ye vidhiling lakarasya ye arthaha tayeva lot lakarasya api. Ashishi ling lotau. Ashir arthe punaha ling lot ityubhau api lakarau vihitau. Ashihi is desire for something which is not there. It's not, I have told this earlier, it is not just benediction. It is just a desire for something which is not there. So, etaihi tribhihi sutraihi ling lotau vidhiyete. As you can see, the senses of ling and lot are both the same. But in case of ling, the lakara splits into two. The ling which is given by vidhini mantrana, we call it as vidhi ling. And that which is given by ashishi ling lotau, we call ashir ling. There is a difference in prakriya. Because later, arthadhatuka samnya vidhanakale, Lingashishi ityanena ashishiyaha linglakaraha tasya ardhadhatuka samnya vidhiyate. So that is why we call vidhiling as the sarvadhatuka ling and ashirling as the ardhadhatuka ling. As soon as it is ardhadhatuka, the whole prakriya differs. That is why linglakara is different for these senses. Lot lakarastu samanaha. In lot, there is no such difference. The rupas are all the same for whether it is the vidhyadi or ashihi, except one additional form in the ashir ling lakar. Ling nimitte ring kriyati pattav. So ring lakaraha ling nimitte hetu hetu madbhave, in the sense of cause and effect. We have ring lakara. Kriyati pattav, kriyayaha atipattav. So when the action does not happen, when we are saying kriyayaha anishpattav gamyamanayam. So when we say there is cause and effect, if A then B, it also indicates that neither A will happen nor will B. So it's likely that it will not happen. So bhute bhavishyati cha. Sutra dvayam asti bhute chayati. Bhavishyat kale api hetu hetu madbhave kriyanti pattav ring lakaraha bhuta kale api bhavati. So in both senses we have ring lakara. The last lakara, the late, okay, again is used in the sense of ling lakara and is found only in the Vedas. So ete lakaraha. Lakara vidhanam evihi sutraihi kriyate. Lakare krate adatau. So there is agama at or at. Lung lang lrungshu at udataha. Eshu trishu lakareshu angasya at iti agamaha vidhiyate. You can see it in apathit iti lung lakare, apathat iti lang lakare, apathishyat iti lrung lakare, angasya at iti agamaha shruyate. At ajadi naam yadi angam ajadi bhavati tarhi adagamasya adagamam badhitva at iti agamaha kriyate. Yatha iksh iti dhatuhu tatra a iksh bhavati. Adagame krate atascha ityanena vriddhihi. So, ataha achipare vriddhihi. Whenever at is followed by any ach, here we are doing adagama only for the ajadis in this case. There are other cases where adagama can be for hal. So, in this case, adagama is always for ach. So, when followed by ach, there is always vriddhi by atashta. So, a iksh becomes aiksh. Aikshishta iti lungi, aikshat iti langi. Aikshata iti langi shamyatam, aikshishyata iti lringi cha adagamaha shruyate. So there is, as I've said, the at and at, when do we do it, is there are two views in grammarians. So some of them prefer doing it at the lavastha. Lakaravasthayameva adagamaha iti bhashya siddhantaha api ataha lavasthayameva kriyate kaishchit antepi kriyate angakaryasya anantaram adagamaha adagamova sahapakshaha api asti. So I have studied the lavasthaya matte paksha from my teacher, so I prefer doing it in the lavastha, but there is a view which does it later. So as long as the final form is not affected, it is fine. Okay. So there was one question earlier in the ling, when we did the ling. Why could Ashishi not be included in the first sutra that defines ling? Why make it a separate sutra? There are intervening sutras, if you look at this. I'm sorry, I mean, for this presentation, I have not included sutra numbers. I'm sorry, I should have done it. I prepared this presentation very late at night yesterday, so I did not have the time to include the sutra numbers. If you look at the sutra number, there are intervening sutras. Okay. So those arthas are, the Vidhinimantrana, etc., are taken for the sutras which follow. The Ashishi Ling Lotav, again the Ashishi goes for other sutras. Only Ashishi and not the other senses. So the Sutra Vibhaga. Okay. So the next step, okay, so is Lasya Tibarayaha. We have the Lakara, we have done the At or At, if the case is Lung Lung Lrit. So in other cases, the first thing that happens is Lakarasya Sthane Tivadayaha Adeshaha. So Lakara is replaced by one of these. Tiptasthi Siptastham Ibvasmas Tatamja Thasatham Dvam Id Vahimahim. It is Utrena Tivadayaha Vidhiyante Kaha Pratyaha Kartavyaha Ityatratu Adau Tivadinam Vibhagaha Nyatavyaha. So we've seen earlier Laha Parasmai Padam Tangana Vatmane Padam iti Sutradvayam. Adau Ladeshanam Sarvesham Parasmai Padasamya Vidhiyate Tang Anau Tataha Tang Tatam Jathasatham Dvam Idvahimahim iti Tang Pratyaharaha Anau Ityanena Shanach Kanach Pratyau Grihyate Etesham Atmane Padam iti Samya Vidhiyate Tadbhinnanam Tiptasji Siptastha Mibvasmas iti Navanam Shatru Kvasu iti Dvayoshcha Parasmaipada Samnya. Okay. So total there are 22 pratyayas which are added as Ladeshas. Saksha Lakarasya Sthane Adeshaha Dvavimshatihi. The 18 Tivadayaha. So there is Lataha Shatrishanachau and there is Litaha Kvasuhu Kanajva. Litaha Kanajva Kvasushcha. So these are the direct adeshas for the lakara. So among these, the tiptasji, siptastha, mibvasmas, these 9, shatru and kvasu are designated as parasmaipada. Tang, shanach, kanach are designated as atmanepada pratyayas. Parasmaipadam, atmanepadam iti pratyayanam samnya. Tingas trini trini prathama madhyama uttamaha. Ubhayoho padayoho trayanam samuhasya prathama purushaha madhyama purushaha uttama purushaha iti samnya bhavati tataha punaha tani ekavachana dvivachana bahuvachanani ekashaha. So they are divided into eka dvi bahuvachanas. So we have clear and unique identity for each pratyaya. So tip is prathama purusha ekavachana pratyaya parasmaipada. So vas would be parasmaipada uttama purusha dvivachana pratyaya. So based on which of these is the vivaksha, vivaksham ashritya ekaha pratyaha kriyate tiptasthi iti sutrena etesham sarvesham pratyayanam vibhaktischa ityanena vibhakti samnya api asti iti sarvada smartavyam. So we have the division kutra kim upayujyate, kutra parasmaipadam kutra atmanepadam. Kutra prathamaha, kva madhyamaha, kva uttamaha, ityadi api adhitam. So if you remember, anudatta nita atmanepadam. Yadi dhatau anudatta swaraha itsamyakaha, अथवा नकारः इत्सम्यकः तर्हि धातोः आत्मनेपदं भवति। एध इत्यत्र धकारोत्तरः अकारः अनुदात्तः अनुनासिकत्वात् इत्सम्यकः, अतः एध धातुः आत्मनेपदी। एधते इत्यादीनि रूपाणि। नित् शीङ् इति धातुः, तत्र ङकारः इत्सम्यकः, अतः सः आत्मनेपदी। शेते शयाते शेरते। भावकर्मणोः भावे कर्मणि च सर्वे धातवः आत्मनेपदिन एव। सर्वेभ्यः धातुभ्यः आत्मनेपदप्रत्ययाः एव विधीयन्ते। पठ पठ्यते, भू भूयते, एध एध्यते। सर्वेषां धातूनां भावे कर्मणि आत्मनेपदमेव। दट् इस् ओन्ली इन् द कर्तरि प्रयोग दट् वि फैण्ड् परस्मैपदास्। स्वरितञितः कर्तृभिप्राये क्रियाफले यस्मिन् धातौ स्वरितस्वरः इत्सम्यकः अथवा ञकारः इत्सम्यकः, तादृशः धातुः उभयपदी इति उच्यते। कर्तृभिप्राये क्रियाफले आत्मनेपदम्, यत्र क्रियायाः फलं कर्तृगामि भवति। वेर् द इफेक्टिव् रिसल्ट् आफ् द एक्शन् इस् इण्टेण्डेड् फार् द कर्ता हिम्सेल्फ् देर् वि हेव् आत्मनेपद, अन्यत्र परस्मैपदं भवति। अतः एते धातवः उभयपदिनः। डुपचष् इत्यत्र अकारः स्वरितः इत्सम्यकः, अतः पचति पचते। एवं डुक्रञ् करणे ञकारः इत्सम्यकः, करोति कुरुते। निचश्च निजन्ताः धातवः अपि उभयपदिनः। कर्तृभिप्राये क्रियाफले आत्मनेपदम्, अन्यत्र परस्मैपदम् इति व्यवस्था। चोरयति चोरयते इत्यादि। शेषात् कर्तरि परस्मैपदम्। सो अदर् देन् द धातूस् विच् गेट् आत्मनेपद इन् सम् केस्, अदर् देन् दोस् धातूस् कर्त्रर्थे परस्मैपदं भवति। सो दीस् आर् द फैव् मेन् सूत्रास् विच् डिफैन् द आत्मनेपद आर् परस्मैपद फार् द धातु। देर् आर् अदर्स्। उपसर्गवशात् अर्थविशेषाद्वा पदव्यत्ययः दृश्यते। Also, we find that the padavyavastha is not very strict in the older literature. If we see the Ramayana or the Mahabharata or the Vedas, there are a lot of cases where the padas are different. They are not very strict, but in later classical Sanskrit literature, the padavyavastha is strict. Dhatu can clearly be either Atmanepadi or Parasmaipadi or Ubhayapadi. But even in Ubhayapadis, this sense in which the Sutrakara defines it, Kartrabhipraye kriya phale atmane padam anyatra parasme padam, Savyavastha api bahudha na drishyate. It is not practically found in use. We just state it as Ubhayapadis. You can use it either as parasme padi or atmane padi. So those are the practical aspects of usage. Theoretically, this is what Panini says. So Padavyavastha drishta, Purushavyavastha तु सर्वैः ज्ञायते एव। युष्मदि उपपदे समानाधिकरणे स्थानिन्यपि मध्यमः। यत्र लकारः लकारस्य लकारार्थस्य अथवा तिङन्थस्य समानाधिकरण्येन युष्मच्छब्दः विद्यते, करोषि त्वं करोषि, तत्र तिङर्थः कर्ता, पुनः त्वम् इति समानाधिकरणम्। सो युष्मदि उपपदे समानाधिकरणे मध्यमः। स्थानिन्यपि, सो इवन् इफ् द वर्ड् युष्मद् इस् नाट् यूस्ड्, एस् लाङ्ग् एस् इट् इस् इट्स् मीनिङ्ग् इस् प्रेसेण्ट्, करोषि इति उक्तेऽपि तत्र मध्यमपुरुषः श्रूयते। अस्मदि उत्तमः, यत्र अस्मत्समानाधिकरण्यम्, वेर् द तिङर्थ इस् समानाधिकरण वित् अस्मत्, वि हेव् उत्तमपुरुष। शेषे प्रथमः, इन् द रेस्ट् इफ् देर् इस् नीदर् युष्मद् नार् अस्मद्, वि हेव् प्रथमपुरुष। शेषे प्रथमः। वचनव्यवस्था वेरि आब्वियस्, बहुषु बहुवचनम्, द्व्येकयो द्विवचन एकवचने। स्वपदार्थस्य बहुत्वे विवक्षिते बहुवचनम्, द्वित्वे विवक्षिते द्विवचनम्, एकत्वे विवक्षिते एकवचनम्। सो डिपेण्डिङ्ग् आन् द विवक्ष, विच् पद, विच् पुरुष, विच् वचन, वि चूस् वन् प्रत्यय अमङ्ग् द 18 तिप्तस्थिषु एकः प्रत्ययः क्रियते सिप्तस्थि सिप्तस्थमिवस्मस् ताताम् झ था साथाम् ध्वम् इड्वहि महिम् इति सूत्रेण. सो दट् इस् द नेक्स्ट् स्टेप्. द लकार इमीडियट्लि रीप्लेस्ड् बै वन् आफ् दीस्. सो वन्स् वी डू द प्रत्यय, दर् इस् द विकरण प्रत्यय. सो विकरण इस् नाट् अ टर्म् यूस्ड् बै पाणिनि. ततः वैयाकरणैः उपयुज्यते. एनी प्रत्यय विच् कम्स् इन् बिट्वीन् अ धातु एण्ड् द थिङ्ग् इस् टर्म्ड् एस् विकरण. विकरणप्रत्ययः द्विविधः, लकारनिमित्तकः गणनिमित्तकः. सो इन् स्पेसिफिक् लकारस् वी हाव् स्पेसिफिक् प्रत्ययस्. सो वि सी स्यतासीन् ररटोः एण्ड् सो आन्. इन् द सार्वधातुक लकारस् लट् लिट् लुट् सारी लट् लोट् लङ् विधिलिङ् तथा सार्वधातुक लेट् इति पञ्चसु लकारेषु गणशः विकरणप्रत्ययाः विहिताः. देर् आर् डिफरेण्ट् विकरणस् फर् द डिफरेण्ट् गणस्. भ्वादिगणस्य औत्सर्गिकः विकरणः शप्. इन् भ्वादिगण कर्तरि शप् इति सूत्रेण औत्सर्गिकतया शप् इति विकरणः विधीयते. वी केन् डू शप् ओन्ली आफ्टर् वी डू तिप् बिकास् इट् सेस् कर्त्रर्थे सार्वधातुके धातोः शप् स्यात्. सो शप् इस् एडेड् ओन्ली आफ्टर् वी एड् तिप् आर् ऐ मीन् वन् आफ् द प्रत्ययस्. सो वी हेव् भू टि. टि इति सार्वधातुक प्रत्ययः. तिङ्क्षित् सार्वधातुकम् इति तिङ् प्रत्ययस्य सार्वधातुकसंज्ञा अस्ति. कर्त्रर्थे विधीयते. तस्मिन् परे धातोः शप्. सो शप् सिट्स् इन् बिट्वीन्. सो शपि शकारः लशक्वतद्धिते इत्यनेन इत्सम्यकः. पकारः हलन्त्यमिति अकारः शिष्यते. सो हेव् भू अ ति. एनी धातु आफ् द भ्वादिगण पठ अ ति, वद अ ति, मन्थ अ ति, वटेवर् यु हेव् शप्. सर्वेषु सार्वधातुकलकारेषु शब्विकरणः भवत्येव. It is compulsory addition in all sarvadhatuka lakaras. Lat, lot, lang, vidhiling, sarvadhatuka let. Iti panchasu sarvadhatuka lakareshu shabvikaranaha bhavati. Sanadhyantanamapi shabvikaranaha bhavatyeva. So even the sanadhyantas, sannantas or ningantas, what we saw in the aya, etc., all of them get shab as the vikarana because it is the general vikarana. सो अयं विकरणः सामान्येन भवति, किन्तु विकरणे विशेषाः अपि अधीताः. सो इन् द भ्वादिगण देर् आर् सम् धातुस् विच् मैट् गेट् अ डिफरेण्ट् विकरण. वा भ्राशभ्राशभ्रमु क्रमु क्लमु त्रसि त्रुटि लषः इति सूत्रेण एतेभ्यः धातुभ्यः वा विकल्पेन श्यन् विकरणः विधीयते. So these dhatus optionally get shyan. So bhrasha iti dhatuhu. Shyanikrate bhrashya iti angam. Shapikrate tu bhrasha. Evam bhrashya bhrasha. Bhramya bhrama. Kramya krama. Lashya lasha. So these five dhatus belong to the bhadigana. The other dhatus in the list are not from the bhadigana. सो एते भ्वादिगणस्य धातवः विकल्पेन श्यन् तदभावे शप्. अतः रूपद्वयं भवति. श्रुवः शृ च. श्रु श्रवणे इति धातोः नित्यं श्नु विकरणः विधीयते. धातोः श्रृ इति आदेशः. रिमेम्बर् दीस् टु आर् डिफरेण्ट्. श्रु हेज् शकार रेफ and ukara. There are three letters, whereas shir has only two. There is shakara and there is rukara. Okay, so this, especially this font, it is difficult to recognize because both of them look the same. There is just the absence of that one line. There are other fonts in which you find the shakara, the normal shakara with the rakara. It is easier to make out the difference, but however you write it, there is a difference. There is shakara, repha and ukara in the original dhatu, but wherever it is sarvadhatuka, it is shru, shrunoti, not shrunoti. Okay. So shrunoti, ashrunot, shrunuyat, shrunotu, shrunvan. So the sarvadhatuka lakaras and the shatru pratyaya, you hear shru because of shruvashrucha. So in case of the arthadhatuka lakaras, shrota, shroshyati, shrutam, shrotum, everywhere you hear the shakara and the repha. Okay. So shruvashrucha ittanena nityam shnu vikaranaha. Vikarane krate shrunu iti angam. So the anga is shrunu. The forms will be like the forms of the fifth gana. Shnu iti panchamaganasya vikaranaha. So shrunu actually takes its forms like the forms of dhatus of the fifth gana. So we'll see the forms there. Akshonya tarasyam ittanena akshu vyaptau iti dhatoho vikalpena shnu vikaranaha vidhiyate. Akshnu iti angam athava aksha. Shnu pratyasya bhave shap. So the normal one is shap. So there is also optionally shnu. So if there is shnu, the forms are like that of the fifth gana. Aksha iti tu samanyataha akshati akshataha akshanti. Tanukarane takshaha. Takshadhatavarapi tanukarane arthe. So in the sense of making it clean or paring it off. So in that sense, takshadhatoho vikalpena shnu vikaranaha. Takshnu iti ekamangam, taksha iti aparam. Dhinvi krinmyoho a cha. Dhivi krivi iti dhatu. Iritvata numagamaha, numagame krate dhinvi, dhinv krinv iti dhatu. Tayoho nityam u vikaranaha. U is a vikarana of the eighth gana. So these two dhatus get u. Akaraha antadeshaha. Also, the dhinv krinv, the ending vakara gets akara as the adesha. So it becomes dhina u krina u. Ato lopaha ityanena akarasya lope dhinu krinu iti angam. Okay. So these take forms like that of the eighth gana. So wherever the vikarana changes, the forms in sarvadhatuka lakara will completely change. Okay. Yaha vikaranaha yasya ganasya tasya ganasya rupani iva bhavanti. So these are the special vikaranas for the bhadigana. Any questions? In all other cases, we have shap as the vikarana. So the next step, remember where we are, Mooladhatuhu, Itsamyalopaha, Prakritikakaryani, Lakaraha, Adatau, Lasyatibadayaha, Vikaranam, Vikarana Pratyaha. So once we add the Vikarana, we do the Angakarya. Vikaranam Ashritya, Dhatuhu, Dhatu itself is the Anga. So Vikaranam Ashritya, Dhatuhu, Yadangakaryam, Vidhiyate, Tate Vikarana Nimittam Angakaryam. Bhadigane sarvatra shap vikaranaha. Tasmin vikarane samanya mangakaryam bhavati gunaha. So when followed by shap, all dhatus, as we have seen, most of the dhatus of bhadigana are followed by shap. So when we have shap, guna is the normal angakar. Sarvadhatuka ardhadhatuka yoho ityanena igantasya angasya gunaha vidhiyate. G ityatra J bhavati, ni iti ne, dru dro, phu bho, smr smar. So ikarantanam, ukarantanam, rikarantanam cha dhatunam gunaha bhavati sarvadhatuka arthadhatuka yohu ityanena. Puganta laghupadhasya cha, yatra laghupadha लघु वर्णः उपधायां विद्यमानः इक् वर्णः लघु भवति तत्रापि गुणः भवति यथा तिप इत्येतत् तेप भवति मुदु इत्येतत् मोद घृष इत्यस्य स्थाने घर्ष इ उ ऋ इत्येते वर्णाः यदि उपधायां सन्ति लघु वर्णाश्च मीनिंग द लास्ट लेटर इज नॉट अ संयुक्ताक्षर इफ इट इज अ संयुक्ताक्षर दिस विल नॉट बी लघु लाइक इफ यू हैव शिक्ष तत्र उपधात्वमपि नास्ति लघुत्वमपि नास्ति आई मीन इफ यू हैव अ संयोग द इक विल नॉट बी इन द उपध आल्सो सो इन एनी केस ओनली इफ इट इज सिंगल हल विच इज प्रीसीडेड बाय द इक वी हैव द गुण इगन्तानां लघुपधानां च गुणः भवति अन्येषां धातूनां किमपि न भवति इफ यू हैव पठ इट इज पठ अ पठ इफ यू हैव मन्थ मन्थ अ मन्थ वन्द अ वन्द अन्येषां धातूनां किमपि अङ्गकार्यं न भवति एतेषां धातूनां इगन्तानां लघुपधानां वा गुणः भवति इति सामान्यं कार्यम् अत्र विशेषाः सन्ति केचन अङ्गकार्ये पाघ्राध्मास्थां नादान् दृश्यर्ति सर्ति सदशदां विभजिघ्रधमतिष्ठमनयच्छ पश्यच्छ धौशीय सीदाः इति सूत्रेण शिति धातोः आदेशाः विधीयन्ते शिति परे सिन्स् शप् इस् शित् वि हाव् दीस् आदेशस् द धातूस् आर् रेस्पेक्टिव्ली रीप्लेस्ड् बै द आदेश 11 धातुस् 11 आदेशस् पा इत्यस्य पिब घरा इत्यस्य जिघ्र धमा इत्यस्य धम स्था इत्यस्य तिष्ठ मना इत्यस्य मन दान इत्यस्य यच्छ दृशिव इत्यस्य पश्य ऋ इति धातोः रच्छ सृ इति धातोः धौ शद धातोः शदल धातोः तस्य शीय षड्ल सद् धातुः तस्य सीद् इति एकादश आदेशाः सो दीस् आदेशास् आर् कम्पल्सरी एक्सेप्ट् इन् द केस् आफ् सृ इन् केस् आफ् सृ वेगितायां गतौ धावादेशः सो वेन् फास्ट् और् क्विक् मूवमेण्ट् इस् इण्टेण्डेड् देर् इस् धावादेश इन् अदर् केसस् देर् इस् नो आदेश सो वी हेव् फार्म्स् लैक् सरति अण्ड् आल्सो धावति अदर् केसस् द आदेश इस् कम्पल्सरी इषु गमि यमां छः एतेषां त्रयाणां धातूनां शिति छकारः अन्तादेशः इषु धातुः तुदादिगणस्य गम इत्यस्य गच्छ यम इत्यस्य यच् अन्त्यस्य मकारस्य स्थाने छकारादेशः शितिपरे छकारे कृते छेच इति तुगागमः तस्यश्चुत्वेन चकारः अतः गच्छ यच्छ इति अङ्गम् भवति ष्ठिवु क्लमु चमां शिति दीस् त्री धातुस् गेट् दीर्घ शितिपरे दीर्घः विधीयते ष्ठिव इत्येतत् ष्ठीवति एवं चम इत्यस्य तु आङि उपसर्गे एव चम धातोः आङि उपसर्गे दीर्घः विधीयते आचामति इति केवलस्य धातोः तु चमति इत्येव रूपम् क्लमु धातुः दिवादिगणस्य क्लाम्यति इत्यत्रापि दीर्घः भवति क्रमः परस्मैपदेषु सो द क्रम धातु वेन् फालोड् बै परस्मैपद परस्मैपदपरेशिति क्रम धातोः दीर्घः विधीयते सो क्रम अ ति विकम्स् क्राम अ ति क्रामति एवं क्रमधातु आल्सो गेट्स् श्यन् ऑप्शनली तत्रापि दीर्घः भवति क्राम्यति क्रामति क्राम्यति इति रूपद्वयम् त्रैवाङ्गकार्ये ऊद् उपधायाः गोहः गुः धातोः अजादौ प्रत्यये परे उपधायाः ऊत् इति आदेशः सो द उकार इस् रिप्लेस्ड् बै ऊ सो इट् बिकम्स् गूह गुहु अ बिकम्स् गूह दंश संज स्वंजाम शपि स्पेसिफिकली वेन फॉलोड बाय शप नलोपः विधीयते दन श ityatra nakarasya lope dashati. Saj sanj a becomes saja. Svanj a becomes svaja. Prayanam dhatunam nakarasya lopaha bhavati shapi pare. Ranjeshcha. Ranj dhatorapi shapi nalopaha. Raj a rajati rajate. Iti rupam. Radhi jabhoho achi. Ajadav pratyaye nu agamaha. So it's the reverse. In these four, nakara is deleted. For radh and jabh, nakara is added. So jabh a. Nakar numagame janabh a. Nashtapadantasya jhali anuswarasya yayi parasavarnaha jambha iti angam. Jambhate, jambhete, jambhante. So these are the special angakaryas specified for dhatus of the bhadigana. Anyesham, other than those which are specified here, there are 8 sutras. Other than these, sarvadhatuka ardhadhatuka yohu or puganta laghu padhasicha. If none of these apply, you just join the vikarana and the dhatu to get the anga. So once we have the anga ready, as we have seen, in most of the cases, except in cases where there is a different vikarana, shnu vikaranaha, u vikaranaha va bhavati ced bhinnam, anyatra sarvatra yatra shap bhavati tatra angam adantam. Okay, we have joined the dhatu and vikarana. So, etad angam adantam. So, this anga is hrasva akaranta. So, depending on this anga, we modify the pratyaya. Tiptasjhiti sutrena, sarvesham lakaranam, ete ashtadashe eva adeshaha. It's a common adesha for all lakaras. But now, we modify the tiptasji based on the anga. Okay, tadeva pratyaya nirmanam. So, that is the next step, which is what we studied for the last few weeks. We studied how to derive the pratyayas for the different lakaras. So, the pratyayas will depend on the lakara and also depend on the anga. Tatra lat lakaraha parasmai pade jhontaha ityekameva karyam. Jhakara is replaced by ant. So we have anti. Ti tas anti si tas tha ni vasmas. So there is no specific karya for any of the other pratyayas. Atmane padeshu tu tita atmane padanam tere iti samanyam karyam. Titsu lakareshu Atmane pada pratyayanam tehe ti samyakasya achontyadi ti. So the final ach and whatever follows is ti. So the ti is replaced by ekara. So ta akara becomes a. So te atam. Am is tit. It becomes a. So ate. Jha, there is chontaha. So ant a anta becomes ante. In case of thas, there is a special sutra, thasaha se. Thas is fully replaced by se. So, athe, dhve, e, vahe, mahe. So, sarvatra tita atmane padanam tere ityanena etvam bhavati. So, for atam and atham, ato nitaha, nitaha akarasya, iya ityadeshaha, adanta dangat parasya. So, this karya is specific to adanta anga. So, when the anga is adanta, the akara is replaced by iyu. Iyu tam, iyu tham. Tatra yakarasya lopo vyorvali ityanena lope, itam, itham, etve krute, ite, ithe. Te, ite, ante, se, ithe, dhve, e, vahe, mahe. Iti latlakare atmanepada pratyayaha. Langlakare vishishya karya trayam. Tas thas thamipam tam tam ta amaha. So for four pratyayas there is direct adesha. Tas is replaced by tam, thas by tam, tha by ta, and mi by am. Tas thas thamipam tam tam tamaha. Nityam nitaha ityanena sakarantasya niduttamasya lopaha. So, vas becomes va, mas becomes ma. Itascha ityanena ikarantasya api lopaha. ti becomes t, si becomes s, ji jhontaha ityanena anti, itascha ityanena ikarasya lope ant, t tam ant, s tam ta, am va ma iti pratyayaha. लंगकारस्य आत्मने पदेतु विशिष्य कार्यम् किमपि नास्ति, nothing specific. So जोन्तः इत्यनेन अन्तादेशः, आताम आथाम इत्यनयोः आतोङितः इति इय लोपो विवर्वलीति यकारलोपः, त इताम अन्त, थास इथाम ध्वम, इ वहि महि. So then लोट लकारः, लोट लकारे लोटो लंगमत इति सूत्रम्. सो द प्रत्ययस् गेट आदेशस् लाइक लंग लकार, व्हिच मींस तस् थस् थमिपाम ताम तम तामः इत्यनेन आदेशः. सो देयर इज ताम तम एंड त फॉर मी मेर निहि. सो इंस्टेड ऑफ अम देयर इज नी बिकॉज़ ऑफ द स्पेसिफिक सूत्र मेर निहि. नित्यं नितः इत्यनेन सकार लोपः, सो इट बिकम्स व म. Instead of itascha, there is eruhu. Ikarasya ukaraha bhavati. So ti becomes tu, anti becomes antu. Serhya picha. Si ityasya sthane, hi iti adeshaha bhavati. Ato hehe ityanena, adanta rangat parasya, hehe luk bhavati. So there is no pratyaya here. Just the anga remains as it is. आड उत्तमस्य पिच्च, उत्तम पुरुषे आट इति आगमः अपि भवति, आनि आव आम. सो तु ताम अंतु, there's nothing तम त, आनि आव आम इति प्रत्ययः. There is one more sutra for लोट लकार. So तुख्यो स्तातं आशिष्यन्य तरस्याम, तुख्यो हु, for tu and he, in आशीर अर्थ. As we saw, लोटलकार can be in विध्यादिश अर्थेशु तथा आशिशी. आशीर अर्थे यहा लोटलकार हा, तस्य tu he इत्येतयो हु स्थाने, तात इति आदेश हा विकल्पेन भवति. So tu तात ताम अंतु, तात तम त, आनि आव आम इति प्रत्ययः. So there's a couple of questions here about what we did earlier. First one, in case of guh, does punta laghu padasya apply? No, it will not. That is why the sutra. The sutra is an exception to punta laghu padasya. So if there was guna, it would have been goh. So it is not. So that is why there is oot upadhaya. He specifically says there is ukara. So it becomes guh. Okay. So and then there is one more question. Lopo vyorvali vivriyata. Lopo vyorvali just says that vakara and yakara when followed by any val. Val is any consonant other than ha ya. So when followed by any consonant, it is deleted. So we have iy tam. So takara is val, so yakara is deleted. Similarly in iy tham. One more, sasajusho ruhu. I did not include it here because it is not specifically for the pratyaya. It happens for everything. We will cover sasajusho ruhu in the tripadi karyas. So these are the pratyayas of lot lakara parasmai pada. Lot lakare atmane pade. We do everything that we do for latlakara. Latlakare yatha bhavati, tatha te ite ante. Te, pitatmane padanam tere iti sarvatra bhavati, thasasse iti, atongitaha. Atongitaha says, Adantad Angat Parasya, if there is an Anga, which is Adanta, followed by Akara of a Nit Pratyaya. So, Atam, Atham. So, the Pratyaya here is Nit because of Sarvadhatukam Apit. Apit Sarvadhatukam Nidvad Bhavati. A Sarvadhatuka Pratyaya which is not Pit. Tip, Sip, Mip are Pit. All other thing pratyayas are apit. If they are apit, they turn out to be nit. So if it is nit, the akara is replaced by iyu. So we have iyu, te. Yakara is deleted by lopo vyorvali. So we have ite, ite. So this is how we have the pratyayas in latlakara atmanepada. So for lotlakara, the initial prakriya is all the same. Once we get this form, Aam etaha, ekarasya sthane Aam iti adeshaha kriyate. So, te becomes tam, tam, itam, antam, itham. Se dhve ityatra, savabhyam vamav, sakarat parasya ekarasya va iti adeshaha, so it becomes sva, vakarat parasya ekarasya am adeshaha, so it becomes dhvam. Sva itham dhvam. Uttama purushe eta ai. Ekarasya sthane aikara adeshaha. So it becomes ai, vahai, mahai. Aduttamasya piccha ittenena adagamaha. A ai. Atashtrayati vriddhav ai. Avahai, amahai. Tam itam antam. Sva itham dhvam. Ai, avahai, amahai. Iti lotlakare atmanepada pratyayaha. Yes, Ravichandran ji, you have a question?
Can you hear me?
Yeah.
So, Ud Upadaya Goha, so that first shouldn't we do the Goha, Goha get Ud Upadaya, right? So, won't it be that first you do Goha and then you get Guhu? Because
what is the Sutra Sankhya? I want to see.
Ud Upadaya Goha.
Sutra Sankhya? I thought it was an Apavada to Guna.
No.
It's not.
7, 4, I think it's 6, 4, 83.
6, 4.
Yeah. Sankhya Vikara.
Yeah, I mean, so 7, 4, 6, 4. So then,
six, four.
Should we do Guna and then do Ut?
Yeah. Yes. After that only.
Because it's not the same domain, because it says Achi. It need not be.
So, Goha Angasya Upadayaha Sahi Ajado Pratyaya Paratahu Ukara Adesha Bhavati.
Yeah, probably you are right. I had not thought of it. So, we do Guna and then do the Ut. Probably. I'll just check it out. I have not looked at this, but probably it sounds right. So I'll just I'll check it out and confirm. Okay. So yeah, it sounds like since it's not the same Anga, it's not the same domain, there is no Badhya Bhadaka Bhava because it's not Pugandala Bhupadhasya say sarvadhatuka ardhadhatuka yohu, any sarvadhatuka or ardhadhatuka pratyaya, whereas this is not anything specific, it says ajadav, so probably we can do the guna and then do the oot. I will confirm with this. Okay, any other questions? So there is one more question. E vahe mahe arpit, even though they do not have pakara. Yes, I mean once you do the adagama, once you have the ai, avahai, amahai, they are pit, even though they don't have pakara, because it says ad uttamasya pitcha. The at agama makes them pit. Okay. Any other questions? Okay. So next, the last lakara is vidhiling lakara. So vidhiling lakara, the prakriya is sounds long, but it's like most of the karyas are common for all the pratyayas. Okay. Vidhiling lakare parasmai pade, sarvesham pratyayana, yasut parasmai padeshu udatung icha etenena, yasut iti agamaha bhavati. Sarvesham pratyayanam bhavati. So yas ti yas tas yas ji sarvatra bhavati. Sut tithoho. Yatra yatra pratyaye takaraha thakarova asti. Tatra takara thakarayohu sut iti agamaha api bhavati. Ti tas tas tha. So yas s ti. Yas s tas. Yas s tas. Yas s tha. Pratyasya yasutagamaha takara thakarayohu sut. Lingasalopo anantyasya. Sutrena sarvadhatuka lingaha. So which is vidhiling. Vidhiling lakare anantyasya sakarasya lopaha. So a sakara which is not at the end is deleted. So the sakara of yasut and the sakara of sut are both deleted. It becomes ya, ti, ya, tas, ya, ji, and so on. Ato ye yaha adanta dangat parasya ya ityasya sthane iyu iti adeshaha. So since the anga is always adanta, the ya of yasut is replaced by iyu. So everywhere commonly for all pratyayas we get iyu and the pratyaya. Iyu ti, iyu tas, iyu ji and so on. Tataha pratyayasya adeshaha. The specific adesha for ling lakara is jher jus. Instead of jhontaha, we have jher jus. So it becomes iyu us, iyus. The other cases, it is the same as that of the lang lakara. Lang lakare yatha bhavati, tasthasthamipam tantantamaha, nityam yitaha, itascha, iti pratyayadeshaha, atrapi bhavanti. Once we do the pratyayadesha, lopo vyorvali, we have iyu and the pratyaya. Yatra yatra pratyaya valadihi. Wherever the pratyaya starts with a val, the yakara is deleted. So if the pratyaya is ajadi, yakara is heard. If it is valadi, pratyaya is the yakara is deleted. So we have iyu ti, itascha ityanena ikara lope iyu tu, lopovyorvali itu. Tasthasthamivam tam tam tamaha. Iyu tam, itam. Iyu us. Here it is not valadi, so yakara is not deleted. So it becomes, there is rutva visarga later. So iyus. Here it is is, itam, ita, iyam, iva, ima. So atmane padetu, lingaha siyut. Sarvesham pratyayanam siyut iti agamaha. Siyu. Siyu atam, siyu jha, sarvesham pratyayanam, siyut agamaha, takara thakarayohu, sudagamaha, atrapi bhavati. So atam, atham ityatra, takarasya thakarasya. So here it will mean siyu astam. So sakara is added before the takara or the thakara. So siyu astam, siyu astham. Lingasya lopo anantyasya ityanena sakarasya lope, siyutaha sakaraha api lupyate, sutaha api. So everywhere it becomes iyu and the pratyaya. Sarvatra iyu ta, iyu atam, iyu jha, ityadi bhavati. Tataha pratyayadeshaha vishishya linglakarasya adesha dvayam, jhasya ran. Jha ityasya sthane ran, iyu ran. Itaha at, it vahi mahin. Uttama purusha ekavachanasya itaha sthane at akaradeshaha vidhiyate. So iyu a. Atra api lopo vyorvali. Yatra pratyayaha valadihi, tatra yakaraha lupyate. So you have iyu ta becomes ita, iya tam. Since it is not valadi, yakara is not deleted. Iyu ran, iran. Ithas, iyatham, idvam, ఈయ ఈవహి ఈమహి. There is a question, Sakara in one place is not Anantya. Yes, Thas, Sakara is not Antya, we will not delete it. Similarly, in the previous case, in the S, once you remove the Ikara, the Sakara is not Antya, so it is not deleted. So basically, only the Sakara of Yasut or Siyut and the Sakara of Sut is deleted. Sakara, which is originally at the end in the pratyaya, is not deleted. Siyut and sut are always anantya because they are agamas at the beginning of something, so they are always deleted. Okay, so these are the pratyayas of vidhiling lakara. Any questions? Okay, I think we'll stop here. We have, if you look at this, we did the dhatu, itsamya lopa, prakritika karyas, the lakara, adagama or adagama, lasyatibadayaha, vikaranaha, vikarana nimitta manga karyam, and pratyaya nirmanam. So then we have three more steps, the Pratyaya Nimitta Manga Karyam, Sandhi Karyam and Tripadi Karyani. So we will do that in the next class and then we will solve the exercises of Vidhiling. Okay, so we have one more week, so those who have not been able to attempt it can do those exercises. So we will complete Vadigana with the next week. After that we will move on to the other Ganas. There's one question. There's one question. Can you please repeat what was the question regarding guhu or guhu? So the question was, you have guhu and shap. Should we directly apply udupadhaya gohaha and convert ukara to ukara? Or should we do guna? Because puganta guhu padhasya is applicable. So should we do guna so it becomes gohu? And then we do udupadhaya gohaha, so it becomes guhu. So is it directly ut or guna followed by ut was the question. Since ut does not appear to be an apavada, so probably we should do guna first and then do ut. I said I will confirm. Okay. There was one more question. Ling lakare shabda siddhyarthe viniyujyamanani sutrani bahuni santi ataha klesha adhikataraha. Yes, the number of sutras is more, but once you have those sutras, vidhiling is also easier, but per pratyaya there is no specific karya. There is not specific karyas different for each pratyaya. So commonly there are a lot of things for all the pratyayas in common. So that is there. There is one more question. So if the ach is not guna nimittaka, then dirgha will not happen. Atuhu. So an ach which can lead to a guna. I'm sorry, I should have studied this, but I have not. So juguhatuhu. In cases where the ach does not lead to a guna, there is no dirgha. So it's obvious that there should have been guna and then there is dirgha. Okay. Okay. So there is one more question regarding Yasut Rao Mahodaya. Yes, you can ask.
Can you hear me?
Yes, tell me.
Okay. So now, in this Lingas Salopanantyasya, Yasut, when you take the Isanya Takara, what is left is Yas. In that case, the Sakara is Antya. Then how can we...
The Antya of Ling, Lingaha, the Ling Pratyaya there is not Yas. Yas is an Agama for the Pratyaya. So Pratyaya is Yas. Or Yas Tam or whatever. So that's the whole thing. So in that, if it is at the end, you delete it or not.
Oh,
it's not the Antya of Yas. It is Lingaha Anantyasya Sakara Siloka. So that's Ling Pratyaya.
So you have to look at the Sakara whether it is the final or not after applying the Pratyaya.
You do Yasut for Yasut is an Agama for the Pratyaya. So you have the Pratyaya, you add Yasut. So then the whole Pratyaya is what we look at it.
Oh, I see. Okay, the final Pratyaya.
Yeah, yeah. Because the Pratyaya Lopa is not for Yasut. It is for Ling. But the Ling Lakara Pratyaya, any Sakara which is not at the end is deleted.
Okay, thank you very much.
Yeah. So there was one more question. So why is sut added and then deleted? As I said, sut is commonly added for all ling lakaras. I mean, not just for vidhiling. We don't hear it in vidhiling, but we do hear it in ashirling. When you go to ashirling, it's the same sut, but there is no lopa because the lingasalopanantyasya is for the sarvadhatuka ling. Okay. So in ardhadhatuka, we do hear it. Bhuyat, bhuyastam, bhuyasuhu. So there we hear the sakara of yasut. In cases like edhishishta, edhishiyastam, edhishiran. So edhishishta, the edhish, the first sakara is that of siyut, the second sakara is that of sut. So we hear that in the ashirli. We don't hear it in vidhili. There is no other reason on why it is added in vidhili, other than it is told as a general. Instead of having to specify it for ashirli, he just gave it as a general one. And it is heard in Ashirling. We do not hear the sut anywhere in Vidhiling. No. Yeah, so in the Laghu Kaumudi, yeah, we don't bring it in for Vidhiling Lakara. It's not heard. But then, yeah. Technically, that would be wrong because Parjanyaval Lakshana Pravritti is one standard rule which we accept always in grammar. Parjanyavat, whether rain is required or not, it rains if there is a cloud. So, if there is a sutra, it will apply whether it is needed or not. We don't apply it on a need based thing. It's. Okay, so we'll, any other questions? What we did today? Yenakshara samamnaya madhigamya maheshwara atkatsam vyakaranam proktan tasmai panina yenamaha vakyakaram vararuchim bhashyakaram patanjalim paninim sutrakaram cha pranatosmi munitrayam.